दक्षिणामूर्तिवर्णमालास्तोत्रम् ओमित्येतद्यस्य बुधैर्नाम गृहीतं यद्भासेदं भाति समस्तं वियदादि यस्याज्ञातस्वस्वपदस्थाविधिमुख्याः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि नम्राङ्गाणां भक्तिमता यः पुरुषार्थान् दत्त्वा क्षिप्रं हन्ति च तत्सर्वविपत्तिः पादाम्भोजाधस्तनितापस्मृतिमीशम् तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि मोहध्वस्त्यैवैनिकवैयासिकिमुख्याः संविन्मुद्रा पुस्तकवीणाक्षगुणान्यम् हस्ताम्भोजैर्भिव्रतमाराधितवन्तः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि भद्रारूढं भद्रदमाराधयितॄणां भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति आदित्यायं वाञ्छितसिद्ध्यै करुणाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि गर्भान्तस्ताः प्राणिनयेते भवपाशच्छेदे दक्षं निश्चितवन्तः शरणं यम् आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि वक्त्रं धन्यासंसृतिवार्धेरतिमात्रात् भीताः सन्तः पूर्णशशाङ्कद्युतियस्य सेवन्ते ध्यासीनमनं तं वटमूलम् तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तेजस्तोमैरङ्गदसङ्घटितभास्वन् माणिक्योत्थैर्भासितविश्वोरुचिरैर्यः तेजोमूर्तिं खानिलतेजः प्रमुखाब्धिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि दद्याज्यादिद्रव्यककर्माण्यखिलानि त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति यज्जिज्ञासां रूपफलार्थीक्षितिदेवः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि क्षिप्रं लोके यं भजमानः पृथुपुण्यः प्रध्वस्तादिः प्रोज्झितसंसृत्यखिलार्तिः प्रत्यग्भूतं ब्रह्मपरं चन्द्रमते च तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि नानेत्येवं यन्मनुमध्यस्थितवर्णान् भक्ताः काले वर्णगृहीत्यै प्रजपन्तः मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्राः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि मूर्तिश्छाया निर्जितमन्दाकिनिकुन्दप्रालेयाम्भो राशिसुधा भूतिसुरेभा यस्याभ्राभासविधौ दक्षशिरोधिः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तप्तस्वर्णच्छायजटाजूटकटाः प्रोद्यद्वीचीवल्लिविराजत् सुरसिन्धुं नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषम् तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि येन ज्ञातेनैव समस्तं विदितं स्यात् यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि मत्तो मारो यस्य ललाटाक्षिभवाग्निस्फूर्जत् किल प्रोषित भस्मीकृतदेहः तद्भस्मासीद्यस्य सुजातः पटवासः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ह्यम्भोराशौ संसृतिरूपे लुठतां तत् पारं गन्तुं यत्पदभक्तिर्दृढनौका सर्वाराध्यं सर्वगमानन्दपयोधिं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि मेधावी स्यादिन्दुवतं संधृतवीणं कर्पूराभं पुस्तकहस्तं कमलाक्षं चित्ते ध्यायन् यस्य वपुर्द्रां निमिषार्धं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि धाम्नां धामप्रौढरुचीनां परमं यत् सूर्यादीनां यस्य स हेतुर्जगदादेः एतावान्यो यस्य न सर्वेश्वरमीड्यम् तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि प्रत्याहारप्राणनिरोधादिसमर्थैः भक्तैर्दान्तैः संयतचित्तैर्यतमानैः स्वात्मत्वेन ज्ञायत एव त्वरयायः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ज्ञांषि भूतान् प्राणिनयेतान् फलदाता चित्तान्तस्तः प्रेरयति स्वे सकलेपि कृत्ये देवः प्राक्तन कर्मानुसरसन् तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं प्राणाक्षादेः प्रेरयितारं प्रणवार्थं प्राहु प्राज्ञायं विदितानुश्रवतत्वाः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि यस्याज्ञानादेव नृणां संसृतिबन्धो यस्य ज्ञानादेव विमोक्षो भवतीति स्पष्टं ब्रूते वेदशिरोदेशिकमाद्यं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि छन्ने विद्यारूपपटेनैव च विश्वं यत्राध्यस्तं जीवपरेशत्वमपीदं भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि स्वापस्वप्नौ जाग्रदवस्थापि न यत्र प्राणश्चेतः सर्वगतो यः सकलात्मा कूटस्थो यः केवलसच्चित्सुखरूपः तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि हा हेत्येवं विस्मयमीयुर्मुनिमुख्या ज्ञाते यस्मिन् स्वात्मतया नात्मविमोहः प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि यैषा रम्यैर्मत्तमयूराभिधवृत्तैः आदौ क्लृप्तायन्मनुवर्णैर्मुनिभङ्गी तामेवैतां दक्षिणवक्त्र कृपयासौ ऊरी कुर्याद्देशिकसम्राट् परमात्मा ऊरी कुर्याद्देशिकसम्राट् परमात्मा।